राम गीता जी का पाठ 13वां अध्याय श्लोक 12 से 22 तक। राम
वसुदेव सुतम देवकी परमानंदम कृष्णं वन्दे जगद्गुरु ज्ञेयं यत्र वक्ष्यामि यज्ञात्वा नृतनश्रुते अनादिमात्परं ब्रह्म न सत्यं नासदुच्यते सर्वतपाणिकावन्त सर्वतुशिशिरोमुखम् सर्वत श्रुतिमल्लोके सर्वमावेश्यतेष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभेत्सैव निर्गुणं गुणभूषित बहिरन्तस्य भूतानामस्मरणं शरणेव च सूक्ष्मत्वात्तद्विज्ञेयं लिङ्गस्थं कान्तिके च अविभक्तं च भूतेषु विभक्तमिव च स्थितम् भूतभर्तृसज्ञेयं श्रीस्मुक्तभवेष्णु च ज्योतिषामपि तज्ज्योतिस्तमस परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यम् सर्वस्य वेष्टितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं श्रोतं समासत मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते प्रपितें पुरुषं चैव वेदनादिनुभावपि धिकारास्य गुणास्तैव वेद्धि प्रकृति सम्भवान् कार्यकरणकर्त्रे हेतो प्रकृतिरुच्यते पुरुष सुखदुःखानां मूर्तित्वे हेतुरुच्यते पुरुष प्रकृतिस्थो भूते प्रकृतिजान्गुणान् कारणं गुणसंयोग्य सदसद्योनिजन्यसु उपद्रष्टानुमन्तस्य भोक्तामहेश्वर परमात्मेति चाप्युक्तो देहे सन् पुरुषपर उपद्रष्टानुमन्तस्य भोक्तामहेश्वर परमात्मेति चाप्युक्तो देहे सन् पुरुषपर वसुदेव सुतं देवं पंशजानुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरि शरणं हरि शरणं हरे 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 शरणं Hari Sharanam, 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 Hari Sharanam.